ततो मगध भूभृत चिर निरोदसं क्लेशितं शताष्टकयुतायुतद्धितयमीश भूमीभृताम् अनाथ शरणायते कमपि पूरुषं प्राहिणोत्तया च समागतक्षपणमेव किं भूयथ यासुरभिमागदौ तदनुनारदो दीरितात्युधिष्ठिरमकोद्यमत् उभय कार्यपर्याकुलः विरुद्ध जैनोद्वरात् उभय सिद्धिरिद्युद्धवे शशं सुषिजै समम् पुरमियेत यौधिष्ठिरी अशेष दयितायुते त्वयि समागते धर्मयो निजित्य सहजै महीम् भवदपाङ्ग संवर्धितैः श्रियम् निरुपमा महन् अहह भक्तदासायितम् भवन्त महिमागधे प्रहितवान् स भीमार्जुनम् गिरिव्रज पुरम् गतास्तदनुदेव यूयम् प्रयो यया च समरोत्सवम् विजयमिषेण तम् मागदम् अपून सुकृतम् त्वमुम् पवनजेन सङ्ग्रामयन् निरीक्ष्य सह जिष्णुना त्वमपि राजयुद्वासितः अशान्त समरोद्धतौ इटपपाटना सङ्ख्यया निपात्य जरसस्तुतौ पवनजेन निष्पाटितम् विमूच्य नृपतीन्मुदा समनुविष्य भक्तिम् पदाम् दिदेशितगतः स्पृशानपि च धर्मगुप्त्यैर्भुवः चक्रुषि युधिष्ठिरे तदनुराजसूयाध्वरौ प्रसन्नवृतकी भवत् सकल राजकव्याकुलौ त्वमाप्ययि जगत्पते द्विजपदावने जाधिकौ चकर्त किमु कथ्यते नृपवरस्य बाह्यो नतिः सततः सभन कर्मणि प्रवरमद्य पूजा विधिं विचार्य सह देव भागनुगतः स धर्मात्मजग यदत्त भवते मुदा सदसि विश्वभूतात्मने तदा ससुरमानुषम् भुवनमेव तृप्तिं ददौ ततः सपदि चेदिपो मुनिनृपेषु तिष्ठत्स्वः स भाजयति को जड पशुपदुर्दुरूतम् वटुम् इति त्वयि स दुर्वचो वितति मुद्वमन् आसनात् उदापतदुदायुदस्तमपतन्नमुम् पाण्डवाः निवाय निज पक्षगान् अभिमुखस्य विद्वेषिण त्वमेव जकृषे शिरो धनुजधारिणा स्वारिणः जनुस्त्रितय लब्धया सतत चिन्तया शुद्धभिः त्वया स परमेकदाम् अधृतयोगिनाम् दुर्लभाम् सतत सुमहिते त्वया क्रतुवरे निरूढे जनो ययौ जयति धर्मजो जयति कृष्ण इत्यालप कलः स तु सुयोधनो दुतमना सपत्न श्रिया मयात्मित सभामुखे तल जल भ्रमाद भ्रमीत् तदा हसितमुत्थितम् द्रुपद नन्दनाभिमयोरपाङ्ग कलया विभो किमपि तावदुजृम्बयन् बराबर निराकृतौ सपदि नाम बीजौ वप जनार्दन मरुत्पुरी निलय पायि मामामया